है ना,
फिर
सलाम दिखवा लो। जय भीम मिस्टर
नंबर
शीतार से मान ले भाई
नंबर
करता दिन से करता कर नहीं करता कर
मिट को नंबर हेलो
वही
मिट को नंबर समझ
शी आ आ सिर करो से
आ सिर के सामान्य सु
क्या होते सामान्य सु
सलास्तवत
सलास्तवत
सबौलत
सबौलत
सवा सवा
सवा सवा अड्रेस है क्यों
अड्रेस है शुरुमीरा
बाखान ना बोले ना मामा रम सेल का
बाखान
बाखान को ना तुम किसी से तबियत को तक एम सी कभी सुनी केल भी तक तैना था कौन है इस वाला मुझे चुन आ लाई ना एम सी
कभी सुनी केल
ሴም ሲክድስ ሚካኤል ቤተክርስቲያን አካባቢ ኢኮኖሚክስ ባለሙያዎች ህንጻ ሚላል እዛ ላይ ነው ትምህርት የሚሰጠው።
እሺ
ትምህርቱ ለሁለት በሳምንት ለሁለት ቀን ነው ትምህርት የሚሰጠው ሰኞና ሮብ ከ11:30 እስከ 1:30 ነው። አከፋፈለታ በአጠቃላይ ሰዓቱ የሚይዘው 20 ሰዓት ነው። ያንድ ክሬታውር ዋጋ 750 ነው። ክፍያቸው 15000 ብር ነው።
ክፍያ 15000?
አዎ
ለሁለት ቀን ነው 15000?
ምን አልከኝ? ይቅርታ
ለሁለት ቀን ነው 15000?
ኖ አጠቃላይ ለዚህ 3 ወር ነው እንጂ።
አዎ 3 ወር ትምህርቱ።
አዎ
ከዛ በኋላ ስራው ምናምን
እኛ የምናስተምረው ዩቲዩብን
እኮ ለማስተማር ብቻ ነው ብሩ።
እኛ ጋር ሲመጡ የምሰራበት አይዲያ አለኝ በዚህ ነገር ብቻ እንከ አየሩ ያገሪን እንቀይራለሁ የዶላር ተከፋ ይሆናል ብለው እርሶ ነው መጀመሪያኛ ጋር ሲመጡ አምነው የሚመጡት።
በቃ
ያለውን ነገር አለ?
አየ የለም በቃ ያው ለትምርቱ አይደል ብሩ የሚያስፈልገው?
አዎ
በቃ እኮ በቃ እናው ክፍያው ምናምን እንዴት ነው የሚፈጠው?
እኔ አካውንት ልክልሃለሁ በዛ ማስተባበል ይችላል።
ከዛ በኋላ ነው ትምርቱ የሚጀምረው?
ትምህርት ኦልሬዲ ተጀምሯል። አንድ ክላስ ተጀምሯል። ነገ ደግሞ ሁለተኛ ክላሳችን ይቀጥላሉ ማለት ነው ተማሪዎች።
አዎ ከማታ 11 ሰዓት ነው ትምህርቱ።
ማታ 11:30 እስከ 1:30
ሁሌ ማለት ነው?
በሳምንት ለሁለት ቀን
መቼና መቼ?
ሰኞና ሮብ።